दृक्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणं दुःब्रह्मदृश्यं मायेति सर्ववेदान्तडिण्डिमः। अहं साक्षीति यो विद्याद्विवीचैवं पुनः पुनः स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः। घटपुट्यादिकं सर्वं मृत्तिकामात्रमेव च तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः। ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः।
आत्मज्योतिः शिवोऽस्म्यहम्।